एसा रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। नेपाली कांग्रेस दलेन स्थानीय स्तराणाम् निर्वाचनम् लक्ष्यीकृत्य स्थानीय स्तर केन्द्रितम् मासावधिकम् प्रचार प्रसाराभियानम् उद्घुष्टम् वर्तते। कांग्रेस दलेन सानेपावर्तिनी केन्द्रीय कार्यालये ह्यः पत्रकार सम्मेलनम् आयोज्य अस्यैव फाल्गुन मासस्य उनत्रिंशात् दिवसात् चैत्र मासस्य उनत्रिंशम् दिवसम् यावत् प्रतिगृहम् गच्छाम कांग्रेस दलम् विजयी करवाम इत्यभियानम् संचालयितुम् ज्ञापितमस्ति। नेपाली कांग्रेस दलस्य नेतृत्वे अधिगतानाम् राजनीतिकार्थिकोपलब्धीनाम् विषये जनताम् विज्ञाप्य दलस्य प्रत्याशिनाम् पक्षे मतदानाय अनुरोद्धुम् अभियानमिदम् सञ्चाल्यमानमस्तीति नेपाली कांग्रेस दलस्य प्रवक्ता डा प्रकाश रणमहत अज्ञापयत्। प्रवक्ता डा महत अवदत् एमसीसी नाम ध्येया अमेरिका देशीय सहयोग परियोजनया सहितेषु राष्ट्रिय महत्वस्य विभिन्नेषु विषयेषु जनतायाम् विद्यमानान् भ्रमान् निवार्य तथ्यम् ज्ञापयितुमपि अभियानम् केन्द्रितम् भविष्यति। अभियानस्य क्रमे सप्तसप्तत्यामेव जनपदेषु दलेन केन्द्रीय प्रतिनिधयः प्रेषयिष्यन्ते। सर्वेषु स्थानीय स्तरेषु च न्यूनतोऽपि एकवारम् केन्द्रीय प्रतिनिधेः उपस्थितौ कार्यक्रमश्च आयोक्ष्यते। नेपाली कांग्रेस दलस्य सर्वाः प्रदेश जनपदस्तरीय समितयः भ्रातृ संगठनानि शुभेच्छुक संघ संस्थाश्च दायित्वं निर्धार्य अभियाने सहभागिन्यो विधास्यन्ते इति प्रवक्ता डा महत अज्ञापयत्। नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादिनः केन्द्रीय समितेः उपवेशः ह्यः प्रारब्धः। श्वस्तन दिवसं यावत् सञ्चल्यमाने उपवेशे अध्यक्षेण माधव कुमार नेपालेन प्रस्तुते प्रतिवेदने विमर्शनं प्रारब्धं वर्तते। अद्य समूह नेतृभिः निष्कर्षः प्रस्तूयते इति संसदीय दलस्य प्रमुख सचेतकः जीवन रामश्रेष्ठः अज्ञापयत्। अध्यक्षस्य नेपालस्य प्रतिवेदने दलस्य सांगठनिकाः विषयाः वर्तमान राष्ट्रिय राजनीतेः समीक्षा स्थानीय स्तराणां आगामी निर्वाचने दलेन अवलम्बनीयायाः नीतेः संसदा पारितीकृतायाः एमसीसी समितायाश्च विषयाः कार्यसूच्यां समाविष्टाः सन्ति। प्रधानमन्त्रिणा शेरबहादुर देउवा विधेयेन सह बालुवाटार वर्तिनी प्रधानमन्त्री निवासे गतदिने फ्रान्स नेपाल संसदीय मैत्री समूहस्य अध्यक्षस्य भेरोनिक रियोतो इत्यस्य प्रतिनिधिमण्डलम् शिष्टाचार मेलनम् अकरोत्। मेलने प्रधानमन्त्री देउवा चिरकालात् कूटनीतिक सम्बन्धयुतस्य नेपालस्य मित्रराष्ट्रेण फ्रान्स देशेन नेपालस्य आर्थिक सामाजिक क्षेत्रे प्राप्यमाणं सहयोगं प्राशंसत्। एवमेव फ्रान्स नेपाल संसदीय मैत्री समूहस्य अध्यक्षस्य रियातो इत्यस्य नेतृत्वस्य प्रतिनिधिमण्डलेन ह्य एव सभामुखेन अग्निप्रसाद सापकोटा विधेन राष्ट्रिय सभायाः अध्यक्षेण गणेश प्रसाद तिमलसेना विधेन च सह मेलवार्ता विहितास्ति। तदवसरे सभामुख सापकोटा अवाचत नेपाल फ्रान्स देशयोः त्रिसप्तति वर्षेभ्य स्थितः कूटनीतिक सम्बन्धः उदाहरणीयो वर्तते। राष्ट्रिय सभायाः अध्यक्षः गणेश प्रसाद तिमलसेना च त्रिसप्तति वर्षीय चिरकालिकीं मित्रतां सुदृढां विधातुं संसदीय मैत्री समूहेन प्रापितं योगदानं प्राशंसत्। संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की निगदति अभिव्यक्ति स्वतन्त्रतायाः नियन्त्रणं सर्वकारेण कल्पितुं न शक्यते। संचार ग्रामवर्तिनी नेपाल पत्रकार महासंघस्य केन्द्रीय कार्यालये महासंघस्य ध्यानाकर्षण पत्रं गृह्णन् मन्त्री कार्की अवदत् सर्वकारः अभिव्यक्ति स्वतन्त्रतायां नेपालदेशं दक्षिणी एशियाई क्षेत्रस्य अग्रणी देशं निर्मातुम् इच्छति। नेपाल पत्रकार महासंघस्य प्रथमाध्यक्षस्य पूर्व प्रधानमन्त्रिणश्च कृष्णप्रसाद भट्टराई इत्यस्य स्वप्नं पूरयन् सर्वकारः पूर्ण संचार स्वतन्त्रतां जनतायां सुशासनस्य प्रत्याभूतिं च दापयितुं सर्वकारः अग्रे वर्धमानोऽस्तीति मन्त्री कार्की समस्पष्टयत्। मन्त्री कार्की पश्चात्तन समये यूट्यूब इन्स्टाग्राम प्रभृति सामाजिक सञ्जालस्य माध्यमेन प्रकटितानाम् अभिव्यक्तीनां नियन्त्रणं सर्वकारेण न विधीयते परं नियमनं क्रियते इति चर्चयन् पत्रकार महासंघेन प्रस्तुतेषु विषयेषु सर्वकारः गभीरोस्तीतिधारणां व्यक्तवान्। न्यूनतम पारिश्रमिक समितेः निरसनस्य प्रवादः विस्तारितः इति चर्चयन् मन्त्री कार्की अवदत् एतादृशे प्रवादे सत्यता न वर्तते। मन्त्री कार्की पत्रकाराणाम् उपचारस्य ज्येष्ठ पत्रकारेभ्यः मासिक वृत्ति प्रदानस्य जनसञ्चार प्रशिक्षण प्रतिष्ठानस्य संघटनस्य च प्रक्रिया अग्रे वर्धितास्तीति अज्ञापयत्। कार्यक्रमे नेपाल पत्रकार महासंघस्य अध्यक्ष विपुल पोखरेल अगदत् संचार सम्बद्ध विधेः यथास्थितौ पारितीकृते सति महासंघेन आन्दोलनं विधास्यते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली स्वदलं प्रति जनलहर्याः सर्जनस्य कारणेन स्थानीय स्तराणां निर्वाचने विजयः अवाप्स्यते इति निश्चिनोति। मोरङ जनपदीयया एमाले दलीय समित्या रंगेली स्थाने ह्य आयोजितां मधेश बृहत् जनसभां सम्बोधयन् अध्यक्ष ओली समृद्धेः यात्रायां कुत्रापि विलम्बनेन विना एमाले दलं सक्रियं भवतीति विश्वासम् अदापयत्। अध्यक्ष ओली जन्मसिद्धाधारेण प्राप्त नागरिकतानां नागरिकाणां सन्ततिभिः नागरिकता प्राप्तव्येति तर्कयन् नागरिकतायाः समस्यां समाधातुं बलं प्रादात्। अध्यक्ष ओली स्वदलेन जनताया इच्छा भावनयो अनुसार कार्याणि विधीयमानानि सन्त्यपि नेकपा एमाले दलस्य अभ्यन्तरे विद्यमानेन अनुचित प्रवेशनेन स्वनेतृत्वस्य सर्वकारः विस्थापितः इत्यभासत। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षम् संयुक्त राज्य अमेरिका देशस्य कृते नेपालस्य आवासीय राजदूतपदे नियुक्तः प्राध्यापकः श्रीधर खत्री ह्यः पदगोपनीयतयोः शपथम् अगृह्णात्। शीतल निवासस्थिते राष्ट्रपति कार्यालये आयोजिते विशेष समारोहे राष्ट्रपतिः भण्डारी अमेरिका देशाय नवनियुक्तम् नेपाली राजदूतम् खत्री इत्यमुम् पदगोपनीयतयोः शपथम् अग्राहयत्। समारोहे संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की, नेपाल सर्वकारस्य उच्चपदस्थाः अधिकारिणश्च उपस्थिताः आसन्। गृहमन्त्री बालकृष्ण खाँड बदती 63-2000 वैक्रमाब्दस्य नागरिकताधिनियमस्य संशोधन विषयस्य सहमत्या निर्णयं प्रापणस्य प्रयासः सर्वकारस्य वर्तते। नेपाल नागरिकताधिनियमस्य संशोधनस्य सम्बन्धे गृहमन्त्रालये ह्यः संघीय संसदः प्रतिनिधिभिः सह विहिते विमर्शने मन्त्री खाँड पृथक्मतस्यापि सम्बोधनत्वेन निष्कर्षं प्रापणत्वेन विमर्शनम् अग्रे वर्धापितमिति अज्ञापयत्। विमर्शने सांसदैः नागरिकैस्सह सम्पृक्तस्य विषयस्य सत्वात् राजनीतिक दलानां शीर्ष नेतृत्वैः सहापि विमृश्य सहमत्या विधेयकं पारितीकर्तुं परामृष्टम् आसीत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा प्रेमबहादुर आले विधेन लुम्बिनी क्षेत्र विकास कोषस्य रिक्तेष् नवसु पदेष् पदाधिकारिणः नियुक्ताः सन्ति। विकास कोषस्य रिक्तेष् नवसु पदेष् मन्त्रिस्तरीय निर्णयात् एते जनाः नियुक्ताः सन्ति इति लुम्बिनी क्षेत्र विकास कोषेण ज्ञापितं वर्तते। मन्त्रालये नवनियुक्त पदाधिकारिभ्यो वर्धापन सन्देशं प्रदत्त मन्त्री आले निर्भयेन लुम्बिनी क्षेत्रस्य विकासाय प्रवर्तितुं निर्दिष्टवान्। संचार सूचना प्रविधि मन्त्रालयस्य सचिवः डॉ वैकुण्ठ अर्यालः रेडियो नेपालस्य प्रसारणं सर्वत्र प्रापयितुम् अतिरिक्त संयोजन प्रसारण केन्द्राणां स्थापनस्य कार्यक्रमाय नैरन्तर्यं प्रदातुं निर्दिशति। मगवानपुर जनपदस्य थाहा नगरपालिकायाः चतुर्थ वडा क्षेत्रस्य सिम्भन्ज्याङ वर्तिनः रेडियो नेपालस्य प्रसारण संयोजन केन्द्रस्य नेपाल टेलिकम संस्थानस्य संयोजन केन्द्रस्य च निरीक्षणस्य क्रमे सचिवः डॉ अर्यालः रेडियो नेपालेन स्वीय प्रसारणं प्रतिशतं 90 जनसंख्यायां प्रापितमस्ति, यथाशीघ्रं 100% जनसंख्यायां प्रापयितुं बलं प्रादात्। तदवसरे रेडियो नेपालस्य कार्यकारी निर्देशकः बुद्धिबहादुर केसी रेडियो नेपालस्य 26 प्रसारण संयोजन केन्द्रेष् सिम्भन्ज्याङ स्थानीयं प्रसारण केन्द्रं प्रभावकारी प्रसारणस्य दृष्ट्यां विपुलक्षेत्रयुतं वर्तते इति अज्ञापयत्।